कर्तारं स्वफलेन यत् किल बलात् कर्मैव नो योजयेत् कुर्वाणः फललिप्सुरेव हि फलं प्राप्नोति यत् कर्मणः ज्ञानं संस्तदपास्तरागरचनो नो बध्यते कर्मणा कुर्वाणोऽपि हि कर्म तत्फलपरे त्यागैकशीलो मुनिः।